प्रार्थनया आरम्भः भवतु। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्। वन्दे संस्कृतमातरम्। हरि ओम् नमस्कारः। वयं हनुमतः लङ्काप्राप्ति पर्यन्त विवरणं दृष्टवन्तः। इदानीं लङ्कादर्शनमपि जातम्। लङ्कादर्शनं कथं जातम् इति चेत्, पूर्वं वर्णितं हनुमान् लङ्कानगरं तत्रत्यं पुष्पकविमानं राक्षसेन्द्रस्य प्रासादः तद्भवनं तत्सर्वमपि दृष्टवान् इति। कथं दृष्टवान् इत्युक्ते, रात्रौ अपि पूर्वतनकवेः उत्प्रेक्षणमासीत् यत् निशा स्वयं चन्द्रं दीपं कृत्वा हनुमन्तं दर्शितवती रात्रिः इति दृष्टम्। चन्द्रः अपि अत्र चिन्तयति, मम अपि अस्मिन् देवकार्ये साहाय्यं भवतु, ममापि अस्मिन् कार्ये शुभकार्ये भागग्रहणं भवतु इति चिन्तयति। सः चन्द्रः एवमपि चिन्तयति, आत्मानं सूर्येण सह तोलयति। सूर्यः दिवा दिवसं प्रकाशयति, चन्द्रः रात्रिं प्रकाशयति। तर्हि चन्द्रः चिन्तयति, सूर्यः कृतकृत्यः, सूर्यः अत्यन्तं सन्तुष्टः। कथम् इति चेत्, तेन साहाय्यम् आचरितं रामकार्ये। सूर्येण कथं साहाय्यम् आचरितम् इत्युक्ते, परोक्षतया सूर्यपुत्रः सुग्रीवः रामेण सह मैत्रीं विधाय अत्र सीतान्वेषणकार्ये सः तत्परः इति। अतः सूर्यः स्वपुत्रद्वारा कृतकृत्यः यथा जातः, तथा अहं स्वयं किमर्थं साहाय्यं न आचरेयम्, स्वयं किमर्थम् अहं साहाय्यं न कुर्याम् इति विचिन्त्य चन्द्रः अपि हनुमतः मार्गं दीपायते, मार्गं प्रकाशयति इति भावः। अत्र श्लोकः अस्ति, पश्यामः। सर्वैः अपि श्रूयते खलु?
आं भगिनि।
अस्तु, नमस्ते। अहं श्लोकभागं पठामि, कृपया अनुवदन्तु। आदित्यः कृतकृत्ययेष भविता सीतापतेरीदृशम्।
आदित्यः कृतकृत्ययेष भविता सीतापतेरीदृशम्।
साहाय्यं विरचय्य कीर्तिमतुलामादित्सुनासूनुना।
साहाय्यं विरचय्य कीर्तिमतुलाम् आदित्सुनासूनुना।
इत्यालोच्य तदा किल स्वयमपि ख्यातिं गृहीतुं पराम्।
इत्यालोच्य तदा किल स्वयमपि ख्यातिं गृहीतुं पराम्।
अत्र ग्रहीतुम् इति स्यात् दोषः अस्ति, गृहीतुम् इति अस्ति। लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम्।
लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम्।
अत्र पदच्छेदः अस्ति, आदित्यः कृतकृत्यः एषः भविता, सीतापतेः ईदृशं साहाय्यं विरचय्य कीर्तिम् अतुलाम् आदित्सुना सूनुना इति आलोच्य तदा किल स्वयमपि ख्यातिं ग्रहीतुं परां लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम्। एतेषां पदानाम् अर्थं यदि वयं किञ्चित् अवलोकयामः तर्हि अवश्यम् अन्वयकरणे तत्र साहाय्यं भवति। आदित्यः सूर्यः, कृतकृत्यः कृत्यं कृतं येन सः, यः कर्तव्यं कृतवान् अस्ति अतः सन्तुष्टः, एषः एषः सूर्यः, भविता भविता इति क्रियापदं भविष्यति इति अर्थः, सीतापतेः ईदृशं साहाय्यं, सीतापतेः श्रीरामस्य एतादृशं साहाय्यं, कीदृशं साहाय्यम् इत्युक्ते सीतान्वेषणरूपं साहाय्यं, विरचय्य कृत्वा कीर्तिं यशः अतुलाम् अनुपमाम् अपूर्वां कीर्तिम् आदित्सुः, आदित्सुना आदित्सुः इत्युक्ते आदातुम् इच्छुः प्राप्तुम् इच्छुः, आदित्सुना सूनुना पुत्रेण, सूनुः इत्युक्ते पुत्रः, अतः सुग्रीवेण इति अर्थः अत्र। इति आलोच्य इति विचिन्त्य तदा किल स्वयमपि ख्यातिं ग्रहीतुं, स्वयमपि कीर्तिं प्रसिद्धिं प्राप्तुं, कीदृशीं कीर्तिम् इत्युक्ते परां कीर्तिं ग्रहीतुं लङ्कायां लङ्कानगर्यां रघुनाथदूतसरणौ, रघुनाथस्य श्रीरामस्य दूतस्य सरणौ मार्गे चन्द्रेण दीपायितं, चन्द्रेण दीपवत् आचरितम्। इदानीम् आकाङ्क्षां पश्यामः, दीपायितं, दीपायितम् आसीत् इति स्वीकर्तुं शक्नुमः, प्रकाशितं, केन दीपायितं, चन्द्रेण, किं कर्तुं, किं तत्र प्रयोजनम् इति चेत् स्वयमपि ग्रहीतुं, ग्रहीतुं प्राप्तुं, किं ग्रहीतुं, तां ग्रहीतुं ख्यातिं प्रसिद्धिं, कीदृशीं ख्यातिं ग्रहीतुं, परां ख्यातिं ग्रहीतुं, चन्द्रेण कुत्र दीपायितं, कुत्र दीपवदाचरितं, लङ्कायां रघुनाथदूतसरणौ मार्गे, किं कृत्वा दीपायितम्, अत्र हेतुः किम् इति मत्वा, आलोच्य किम् इति आलोच्य, भविता भविष्यति इति, कः भविता, आदित्यः भविष्यति, कीदृशः आदित्यः, एषः, पुनः कीदृशः आदित्यः, कृतकृत्यः, केन कारणेन कृतकृत्यः, भविता इत्युक्ते अत्र केन इत्युक्ते करणम् उच्यते, सूनुना पुत्रेण, कीदृशेन सूनुना, आदित्सुना प्राप्तुम् इच्छुना, आदित्सुना काम, आदित्सुना सूनुना कीर्तिं प्राप्तुम् इच्छुकेन पुत्रेण, कीदृशीं कीर्तिम्, अतुलां कीर्तिम्, किं कृत्वा सः कीर्तिम् आदित्सुः अस्ति, विरचय्य कृत्वा इति अर्थः किं विरचय्य साहाय्यं विरचय्य कस्य साहाय्यं सीतापतेः श्रीरामस्य कीदृशं साहाय्यम् ईदृशम् इत्युक्ते रघुनाथ दूतसरणेः दीपनम् तत्र सीतान्वेषणकार्यम् इति अर्थः चन्द्रस्य कार्यं प्रकाशनम् सुग्रीवपुत्रस्य सुग्रीवस्य कार्यं सीतान्वेषणकार्यम् ईदृशं साहाय्यम् अन्वयः एवं भवति सीतापतेः ईदृशं साहाय्यं विरचय्य अतुलां कीर्तिम् आदित्सुना सूनुना एषः आदित्यः कृतकृत्यः भविता इति आलोच्य तदा किल लङ्कायां रघुनाथदूतसरणौ स्वयमपि परां ख्यातिं ग्रहीतुं चन्द्रेण दीपायितं किल प्रतिपदार्थं पश्यामः सीतापतेः श्रीरामस्य ईदृशं साहाय्यं सीतान्वेषणे श्रीरामस्य साहाय्यं विरचय्य कृत्वा अतुलां कीर्तिम् अपूर्वं यशः एतादृशं यशः न कोऽपि पूर्वं प्राप्तवान् न भूतो न भविष्यति इति दृष्ट्या अतुलां कीर्तिम् आदित्सुना प्राप्तुम् इच्छुकेण आदित्सुना सूनुना पुत्रेण एषः आदित्यः अयं सूर्यः कृतकृत्यः संसिद्धः अभिलषितं प्राप्तवान् अस्ति न किमपि तेन इतः परं प्राप्तव्यम् इति सः कृतकृत्यः भवति भविता भविष्यति इति आलोच्य इति विचिन्त्य तदा तस्मिन् प्रदोषकाले इति वयं पूर्वं दृष्टवन्तः तदा लङ्कायां रघुनाथदूतसरणौ रामदूतस्य मार्गे स्वयमपि यथा सूर्यः तथा स्वयं चन्द्रः अपि परां ख्यातिं ग्रहीतुं पराम् अनुत्तमां प्रसिद्धिं प्राप्तुम् चन्द्रेण शशिना दीपायितं किल दीपवत् आचरितं खलु इति भावः अत्र चन्द्रः चिन्तयति यथा सूर्यः कीर्तिं प्राप्तवान् अस्ति स्वपुत्रद्वारा स्वयं न कृतवान् अपि चेत् पुत्रेण साहाय्यम् आचरितम् कीदृशं साहाय्यं सीतान्वेषणरूपकार्यं सुग्रीवः सूर्यपुत्रः भवति अतः पुत्रेण सह कृतकृत्यः अभवत् आत्मा वै पुत्रः इति वदन्ति अतः यथा यदा पुत्रः लोके किमपि उत्तमं कार्यं करोति तत् तेन पितरौ अत्यधिकं सन्तुष्टौ भवतः स्वयं यद् कुर्वन्ति तदपेक्षया पुत्रद्वारा कृतम् आर्जितं यत् यशः भवति तद् पितरम् अत्यधिकं सन्तोषयति तोषयति इति लोके प्रसिद्धिः तथैव गुरोः शिष्यस्य च भावः शिष्यः गुरुम् अतिरिच्यते चेत् गुरोः तृप्तिः भवति सन्तोषः भवति अतः तया दृष्ट्या तेन भावेन अत्र सूर्यः स्वपुत्रेण सुग्रीवेण सह सन्तुष्टिं अलभत यथा सूर्यः कृतकृत्यः तथा अहमपि सूर्यः तु परोक्षसाहाय्यम् आचरितवान् अहं प्रत्यक्षम् अत्र तस्य मार्गस्य दीपनं कृत्वा किमर्थम् अहम् कीर्तिं न लभेय इति चन्द्रः चिन्तयति अयमेव भावः अत्र तादृशः भावः अस्ति यत् सर्वः अपि प्रकृतौ सर्वः अपि अत्र रामकार्ये साहाय्यम् आचरितुं सिद्धः तत्परः अस्ति अहमहमिकया एकैकः साहाय्यं कर्तुम् आगच्छति. वयं पश्यामः वानराः भल्लूकाः सर्वे अपि गरुडः पक्षिणः सम्पातिः इति कतिविध कति जनाः कति प्राणिनः साहाय्यम् आचरन्ति. समुद्रः समुद्रदेवः नक्षत्राणि रात्रिः निशा निशा अपि मार्गं प्रदर्शयति लङ्कां दर्शयति इति दृष्टम्. अनन्तरं मार्गे ये विघ्नभूताः ये आसन् वस्तुतः ते सर्वे अपि साहाय्यम् आचरितुमेव आगताः. तेषाम् आशयः सः एव. अतः रामायणे अपि अयं भावं प्रकटितः अस्ति. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति. नाम न्याये न्यायमार्गे यः प्रवृत्तः अस्ति तस्य साहाय्यं पक्षिणः तिर्यक् येषां ये तिर्यक् गत्या चलन्ति पक्षिणः जन्तवः ते अपि साहाय्यम् आचरन्ति. किन्तु यः कुमार्गम् अनुसरति अपन्थानं यः मार्गः न स्वीकरणीयः तं मार्गं यः चिनोति तादृशं पुरुषम् अथवा नरम् अथवा जनं सहोदरः अपि त्यजति. यथा विभीषणः रावणं त्यक्तवान् किन्तु श्रीरामस्य कार्ये न केवलं मनुष्याः अपि तु वानराः भल्लूकाः अन्ये पशुपक्षिणः चिक्रोडाः इति तिर्यञ्चः अपि साहाय्यम् आचरितवन्तः इति भावः. एकवारं श्लोकं पठित्वा अग्रे गच्छामः. आदित्यः कृतकृत्ययेष भविता सीतापतेरीदृशम् साहाय्यं विरचय्य कीर्तिमतुलामादित्सुनासूनुना इत्यालोच्य तदा किल स्वयमपि ख्यातिं ग्रहीतुं पराम् लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम्. इदानीं कश्चन गद्यभागः अस्ति. एवमेव अटन् हनुमान् प्रविष्टवान् रावणप्रासादं प्रविष्टवान् शय्यागृहपर्यन्तं गतवान्. यतः सीताम् अन्वेष्टुं सर्वत्रापि यत्र महिलाः स्त्रियः भवन्ति तत्रैव किल अन्वेष्टव्या सा सीतादेवी. अतः सः सर्वत्र अटन् शय्यागृहं प्रविष्टवान्. तत्र शयानः अस्ति रावणः, अन्याश्च अन्तःपुरस्त्रियः सन्ति. ताः सर्वाः अपि दृष्ट्वा वितथमनोरथः विफलमनोरथः भूत्वा सः उत्प्लुतवान् बहिर्गतवान् प्रासादं प्रविष्टवान् प्रासादात् निर्गतवान्. ततः उत्प्लुत्य अशोकवनिकां प्रति गतवान् मैथिलीम् अन्वेष्टुम् इति एव अत्र भावः. एतं गद्यभागम् अहं पठामि, भवन्तः अपि पठन्तु. एवमेव पर्यटन् अस्वप्नसुन्दरी सौन्दर्यमुद्रां निद्रया अपि अतिशय्य
स्वप्नसुन्दरी सौन्दर्यमुद्रां निद्रयाप्यतिशय्य
शय्यागृहे कृतसंवेशम्
वेषयुवतिपरिवृतम्
अवरोधवधूजनमपि
अनिरोधेन निरीक्ष्य
तत्र विततमनोरथो मारुतिः
विरचित बहुविध चिन्ता प्रकारः
ప్రాకారాత్ అవప్లుతస్సన్
ప్రాకారాద్ అవప్లుతస్సన్
అశోకవనికాయాం అపి
అశోకవనికాయాం అపి
మైథిలీం అన్వేష్టుం
మైథిలీం అన్వేష్టుం
ఇష్టదేవతా ప్రణతిం అతనుత
ఇష్టదేవతా ప్రణతిం అతనుత
అత్ర ఆంజనేయః వస్తుతః అశోకవనికాం న ప్రాప్తవాన్ గంతుం ఉద్యుక్తః తత్ర గచ్ఛామి ఇతి చింతితవాన్. పూర్వమేవ ఉక్తం యత్ నిషా ఏవ స్వయం దర్శితవతి, సాక్షాత్ ఆంజనేయః సర్వం అపి స్థానం సకృద్ దృష్టవాన్ ఆసీత్. అతః అశోకవనికా ఇతి ఏకం స్థానం అస్తి ఇతి సః జానాతి, తత్ర గంతవ్యం ఇత్యపి నిశ్చితవాన్. అతః తత్ర గంతుం తత్ర అన్వేష్టుం మైథిలీం అన్వేష్టుం తత్ర వా నిశ్చయేన మైథిలీ స్యాత్ శీఘ్రమేవ తామహం పశ్యేయం ఇతి ప్రార్థనాం కుర్వన్ ఇష్టదేవతా ప్రణతిం అతనుత, ఇష్టదేవతా నమస్కారం అకరోత్ ఆంజనేయః ఇతి. ఏవమేవ పర్యటన్ ఏవమేవ సంచరన్ సుందరీ సౌందర్యముద్రాం నిద్రయా అపి అతిశయ్య శయ్యాగృహే కృత సంవేశం వేషయువతి పరివృతం అవరోధవధూజనం. అత్ర కః భావః ఇత్యుక్తే రావణః సుప్తః అస్తి, తం పరితః అన్య స్త్రియః సంతి వేష్య యువతి పరితః సంతి, అనంతరం అవరోధ వధూజనాః అపి సంతి. కాః ఇత్యుక్తే అంతఃపుర స్త్రియః, అవరోధః ఇత్యుక్తే అంతఃపుర స్త్రియః, అవరోధ వధూజనాః అపి సంతి. తాః కీదృశ్యః ఇత్యుక్తే అస్వప్న సుందరీ సౌందర్యముద్రామపి అతిశేరతే. అస్వప్నాః కే దేవాః, తేషాం నిద్రా న భవతి. అస్వప్నాః దేవలోక సుందర్యః యాః సంతి తాసాం యత్ సౌందర్య సంపద్ భవతి తాం సౌందర్య సంపదం అపి అతిరిచ్య తిష్ఠంతి ఏతాః స్త్రియః ఇతి అర్థః. నిద్రయాపి అతిశయ్య ఇత్యుక్తే నిద్రావస్థాయామేవ ఏతాః తావత్యః సుందర్యః చేత్ జాగ్రత్తవస్థాయాం కిం వక్తవ్యం, ఇతోపి సుందర్యః ఏవ భవంతి ఇతి భావః. శయ్యాగృహే కృత సంవేశం, సంవేశః నామ నిద్రా, కృత నిద్రాం కుర్వన్ అస్తి ఇతి. శయానః కృత సంవేశం వేషయువతి పరివృతం, వేషయువతీభిః పరివృతః రావణః. అవరోధవధూజనం అపి అంతఃపుర స్త్రీహి అపి అనిరోధేన నిరీక్ష్య నిర్బాధం దృష్టవాన్, బాధాం వినా దృష్టవాన్ ఇత్యుక్తే సహ సూక్ష్మరూపం ధృత్వా గత్వా దృష్టవాన్ ఆసీత్. అతః అనిరోధేన తం అవరోధయితుం తం బాధితుం న కోపి తత్ర ఆసీత్, సహ యథేచ్ఛం దృష్టవాన్ ఇతి అర్థః. తత్ర వితథ మనోరథః మారుతిః, కింతు తత్ర సీతా న లబ్ధా ఇతి విఫల మనోరథః. అత్ర వా సీతా స్యాత్ ఇతి చింతయన్ సా ఆగతః, కింతు వ్యర్థ మనోరథః మారుతిః ఆంజనేయః విరచిత బహువిధ చింతా ప్రకారః, బహు ప్రకారక చింతాం అకరోత్ సః. కిం కీదృశీం కీదృశ్యాం అవస్థాయాం స్యాత్ జానకీ, సా జీవితా వానవా అథవా రాక్షసైః కథం సా పీడ్యమానా స్యాత్ ఇత్యాదికం బహువిధం తస్య చింతనం మనసి జాయతే. అతః సః విరచిత బహువిధ చింతా ప్రకారః. ప్రాకారాత్ అవప్లుతః సన్, రావణస్య ప్రాసాదస్య యః బహిర్భాగః భవతి కిల ప్రాకారః, తతః సః తస్య ప్రాకారస్య లంఘనం కరోతి. లంఘిత్వా అశోకవనికాయామపి మైథిలీం అన్వేష్టుం, అశోకవాటికాయామపి మైథిలీం అన్విష్యామి इति विचिन्त्य इष्टदेवता प्रणतिम् अतनुत, इष्टदेवता नमस्कारम् अकरोत् भावः। अत्र विस्तरेण आकांक्षा एतत् सर्वं दत्तमस्ति, किन्तु प्रायः साक्षात् एव अत्र पठनेन अवगम्यते इति कारणेन अहं बहु विस्तारं न करोमि, टिप्पणीं दृष्ट्वा अवगन्तुम् अर्हामः वयम्। एकवारम् अन्वयं पठामि, ततः प्रतिपदार्थं पश्यामः। एवमेव पर्यटन् मारुतिः शय्यागृहे अस्वप्नसुन्दरी सौन्दर्यमुद्रां निद्रया अपि अतिशय्य वेषयुवतिपरिवृतं कृतसंवेशम् अवरोधवधूजनम् अपि अनिरोधेन निरीक्ष्य तत्र विततमनोरथः विरचितबहुविधचिन्ताप्रकारः प्राकारात् अवप्लुतः सन् अशोकवनिकायाम् अपि मैथिलीम् अन्वेष्टुम् इष्टदेवता प्रणतिम् अतनुत। एवमेव पर्यटन् मारुतिः लङ्कायां सञ्चरन्, एवमेव इत्युक्ते पुष्पकविमानं दृष्टवान्, राक्षसेन्द्रभवनं दृष्टवान्, लङ्कानगरीं दृष्टवान्, एवमेव सर्वं पश्यन् तत्र तत्र सीतामपि अन्विष्यन् मारुतिः शय्यागृहे शयनकक्षे अस्वप्नसुन्दरी सौन्दर्यमुद्रां निद्रया अपि अतिशय्य, अस्वप्नाः इत्युक्ते देवाः, देवलोक अङ्गनाः सुन्दर्यः, तासां सौन्दर्यमुद्रां तासां रूपसम्पदं निद्रया अपि अतिशय्य, निद्रादशायामपि ताः अतिरिच्य इत्युक्ते जाग्रदवस्थायां एतासां सौन्दर्यस्य किं वक्तव्यम्, अत्यधिकं सुन्दर्यः एताः। वेषयुवतिपरिवृतं वेश्याजनपरिवेष्टितं कृतसंवेशं शयानं निद्रां गतं रावणम् अवरोधवधूजनम् अपि मन्दोदर्यादि अन्तःपुरस्त्रीसमुदायमपि दृष्ट्वा अनिरोधेन निरीक्ष्य निर्बाधं दृष्ट्वा तत्र विततमनोरथः तद्भवने मैथिलीम् अपश्यन् विफल अभिलाषः विरचित बहुविधचिन्ताप्रकारः सीतादेवी कीदृशीं दुर्दशामापन्ना स्यात् इति चिन्ताकुलः सन् प्राकारात् अवप्लुतः रावणप्रासादात् प्रासादस्य परिधिः भवति किल तं लङ्घित्वा अशोकवनिकायाम् अपि मैथिलीम् अन्वेष्टुम् अशोकवाटिकायामपि जानकीं विचेतुम् इष्टदेवता प्रणतिम् अतनुत आराध्य देव वन्दनम् अकरोत् इति भावः। एकवारं गद्यभागं पठामः। एवमेव पर्यटन् अस्वप्नसुन्दरी सौन्दर्यमुद्रां निद्रया अपि अतिशय्य शय्यागृहे कृतसंवेशं वेषयुवतिपरिवृतम् अवरोधवधूजनम् अपि अनिरोधेन निरीक्ष्य तत्र विततमनोरथः मारुतिः विरचितबहुविधचिन्ताप्रकारः प्राकारात् अवप्लुतः सन् अशोकवनिकायाम् अपि मैथिलीम् अन्वेष्टुम् इष्टदेवता प्रणतिम् अतनुत। इदानीं पुनः कश्चन श्लोकः। असौ जनकनन्दिनीं तत इतो विचिन्वन् क्षणात्। अशोकवनिकामगात् अपगतान्यं मार्गभ्रमः।
अशोकवनिकाम् अगाद्
अपगतमार्गभ्रमः पराम् अभिलषन् गतिं शमधनो यथा निर्ममः।
राम अभिलषन् गतिं समर्थनो यथा निर्ममः
त्रयीम् अखिलकिल्बिष प्रशमनैक दिव्य औषधिम्
त्रयीम् अखिलकिल्बिष प्रशमनैक दिव्य औषधिम्
अत्र अत्यन्तं सुन्दर उपमाद्वारा कविः वर्णयति एषः आञ्जनेयः जनकनन्दिनीम् अत्र तत्र सर्वत्र अन्विष्यति कुत्रापि ताम् अदृष्ट्वा सः अशोकवनिकां गतवान् नाम्ना एव ज्ञायते एकं तु अशोकवृक्षबहुला वनिका अतः अशोकवनिका शोक इति पदं न विद्यते शोकः यत्र तदपि भवितुमर्हति तथैव कश्चन यथा कश्चन संसारी संसारे भ्रममाणः परमां शान्तिं प्राप्तुं सन्तोषं प्राप्तुम् आनन्दं लब्धुं सः बहून् मार्गान् अवलम्बते क्रमेण एकैकं मार्गमपि सः अवलम्ब्य तं मार्गं त्यजति न एषः मार्गः न एषः मार्गः न यथा आञ्जनेयः अत्र सीता नास्ति अन्यत्र द्रष्टव्यं तथैव कश्चन भवरोगपीडितः इतस्ततः भ्रममाणः अन्ततो गत्वा त्रय्याः वेदमार्गम् अवलम्ब्य अन्य सर्वमार्गानपि परित्यज्य यथा परमां शान्तिं प्राप्नोति येन तस्य सर्वाणि अपि पापानि नष्टानि भवन्ति तादृशः परमां गतिं प्राप्स्यति एव तथैव अत्र आञ्जनेयः अन्य सर्वानपि मार्गान् परित्यज्य अशोकवनिकां गतवान् इति वर्णनम् पदच्छेदं पश्यामः असौ जनकनन्दिनीं ततः इतः विचिन्वन् क्षणात् अशोकवनिकाम् अगात् अपगतान्यमार्गभ्रमः पराम् अभिलषन् गतिं शमधनः यथा निर्ममः त्रयीम् अखिलकिल्बिषप्रशमनैकदिव्यौषधिम् आकाङ्क्षायां प्रथमं क्रियापदं किम् इति पश्यामः अगात् अद्यतन नु अगच्छत् कः अगात् असौ हनुमान् कुत्र अगात् अशोकवनिकां कदा क्षणात् एव किं कुर्वन् अगात् विचिन्वन् अन्विष्यन् कां विचिन्वन् जनकनन्दिनीं कुत्र विचिन्वन् ततः इतः इतस्ततः भ्रमन् कीदृशः असौ अपगतान्यमार्गभ्रमः अन्यमार्गस्य सन्देहः एव विगतः मनस्तः कथमिव अगात् यथा निर्ममः शमधनः पराम् अभिलषन् अखिलकिल्बिषप्रशमनैकदिव्यौषधीं दिव्यौषधिं त्रयीं यथा कश्चन गच्छति तथा इति भावः अन्वयः भवति असौ जनकनन्दिनीम् इतः ततः विचिन्वन् अपगतान्यमार्गभ्रमः सन् शमधनः निर्ममः पराम् अभिलषन् अखिलकिल्बिषप्रशमनैकदिव्यौषधिं त्रयीं यथा गच्छति तथा क्षणात् अशोकवनिकाम् अगात् अन्वयार्थः भवति असौ आञ्जनेयः जनकनन्दिनीं जानकीम् इतः ततः विचिन्वन् इतस्ततः अन्विष्यन् अपगतान्यमार्गभ्रमः मार्गान्तरसञ्चारं परित्यज्य निरस्तः अन्यमार्गः मार्गान्तरं यस्मात् अत्र आञ्जनेयपक्षे सर्वमार्गानपि अन्विष्टवान् अन्ततो गत्वा अत्र प्राप्तवान् शमधनपक्षे मोक्ष मुमुक्षोः पक्षे किं भवति, अनन्यगतिकः सन्, यशः एव मार्गः इति एकमेव मार्गम् अवलम्ब्य इति अर्थः, अनन्यगतिकः सन्। शमधनः, शमधनः नाम शान्त प्रशान्तचित्तः, मनसः निग्रहणं यः करोति सः शान्तः भवति, शमी भवति। दमः इत्युक्ते इन्द्रियाणां निग्रहः, शमः इत्युक्ते मनसः निग्रहः। शमधनः वशी, यः आत्मनः मनः निगृहीतवान् अस्ति। निर्ममः ममतारहितः, ममत्वरहितः। पराम् अभिलषन्, परां गतिम् इच्छन्, मोक्षं कामयमानः कश्चन। अखिल किल्बिष प्रशमनैक दिव्यौषधिम्, किल्बिषम् इत्युक्ते पापम्, अखिल किल्बिषं सर्वपापम्, सर्वपापानां प्रशमनं, सर्वपापानां विनाशः, तस्य सर्वपापानां विनाशस्य एकः एव औषधिः अस्ति, सः कः? त्रयी इति, वेदः इत्युक्ते ब्रह्मज्ञानम् इति अर्थः। अखिलकिल्बिषप्रशमनैकदिव्यौषधिं, समस्तपापानां विनाशाय स्थितं विद्यमानम् अद्वितीयं दिव्यौषधिं, दिव्यभेषजं, विष्णुसहस्रनामे भेषजं भिषक्, नारायणः एव इति उच्यते किल, भेषजं, भेषजम् इत्युक्ते औषधं, भिषक् इत्युक्ते वैद्यः। त्रयीं, वेदं, ब्रह्मविद्याम् अथवा ब्रह्मज्ञानं, त्रयीं। यथा कश्चन मुमुक्षुः गच्छति क्षणात्, शीघ्रमेव अशोकवनिकाम् अगात्, अशोक तरुबहुलां वाटिकाम् अगात्, अगच्छत् आञ्जनेयः। समस्ति इति मन्ये, एकवारं श्लोकं पश्यामः, पठामः। असौ जनकनन्दिनीं तत इतो विचिन्वन् क्षणात्, अशोकवनिकामगात् अपगतान्यमार्गभ्रमः, पराम् अभिलषन् गतिं शमधनो यथा निर्ममस्त्रयीम्, अखिलकिल्बिषप्रशमनैकदिव्यौषधिम्। इदानीम् आञ्जनेयः प्राप्तवान् अशोकवनिकाम्, तस्य वर्णनमस्ति, नाम्ना एव ज्ञायते यत् अशोकबहुला वाटिका एषा, अशोकवृक्षबहुला। यद्यपि तत्र अधिकाः अशोकवृक्षाः सन्ति, तथापि अत्यन्तं विस्तृतम्, अत्यन्तं विस्तृता वाटिका, अत्यन्तं विस्तृतं वनम्। तस्मिन् उपवने अनेके वृक्षाः सन्ति, अनेकप्रकारकाः वृक्षाः सन्ति। अत्र अस्मिन् गद्यभागे कतिपयवृक्षाणां नामानि उल्लिखितानि, एतानि एव इति न, अन्ते उक्तं यत् एतादृश प्रायैः इत्युक्ते एतादृश एते वृक्षाः, तादृश अन्यवृक्षाः अपि सन्ति इति चेत् कति विधवृक्षाः सन्ति इति वयम् ऊहितुं शक्नुमः। अत्र वस्तुतः किमपि नास्ति, वृक्षाणामेव आवलिः अस्ति, वृक्षाणां नाम्नाम् आवलिः गद्ये, तत्र अशोकवनिकायां वृक्षाणामेव आवलिः, तावदेव। तत्र प्राप्तवान् ततः तस्यां, तस्याम् इत्युक्ते अशोकवनिकायाम् अन्तिमपङ्क्तौ किम् उक्तमस्ति, सः अशोकवनिकायां किं कृतवान्, काञ्चन काञ्चनमयीं शिंशपाम् आरुरोह, स्वर्णमयीं शिंशपावृक्षम्, शिंशपा इति कश्चन वृक्षः, तं वृक्षम् आरूढवान् इति एव भावः। किन्तु सा वाटिका परिवृता अस्ति तैः एतैः वृक्षैः, कैः वृक्षैः इति एव आवलिः वयं गद्यभागं पश्यामः। ततस्तस्याम् नाग पुन्नाग ताल हिंताल
नाग पुन्नाग ताल हिंताल
तमाल कृतमाल सरल बकुल
तमाल कृतमाल सरल बकुल
मंजुल तिलकामलक कुटज लिकुच
मंजुल तिलकामल
तिलक आमलक कुटज लिकुच कतक कोल अंकोल लवंग
कतक कल्लो कल कक्कोल
अंकोल लवंग
विकंग विकंग
विकंकत केतकी कदंबोदुंबर
केतकी कदंबोदुंबर
कपित्थ अश्वत्थ कुरबक मरुबक
कपित्त अश्वत्त कुरबग मरुबग
माकंद कुंद तिंदुक चंदन स्यंदन
माकंद कुंद तिंदुक चंदन
स्यंदन चंपक चांपेय पनस वेतस पलाश
चंदन
पाटल
चंपेय पनस वेतस
पलाश पाटल रसाल प्रियालु प्रायैही
पालस पटाल रसाल प्रियालु प्रायैही
अनेकैही अनोकः निवहैही
अनेकैही अनोकः निवहैही
परिवृतायाम
परिवृतायाम
परिभ्रमन अभ्रंकश विकट विटप निबिडित गगन प्रपंचाम
परिभ्रमन अभ्रंकश विकट विटप निबडित गगन प्रपंचाम
कांचन कांचनमयीं शिंशपाम आरुरोह
कांचन कांचनमयीं शिंशपाम आरुरोह
वस्तुतः अत्र आवलिः एव अस्ति वृक्षाणां तेषां संस्कृतेन एव ता नामानि अत्र उल्लिखितानि सन्ति टिप्पण्यां भवन्तः द्रष्टुमर्हन्ति अनन्तरमपि वयम् इतोपि किञ्चित् अन्वेषणं कृत्वा परिचित भाषायां अस्माकं मातृभाषायां वा आङ्ग्लभाषायां वा यानि नामानि अस्माभिः ज्ञायन्ते तेषां सङ्कलनमपि वयं कुर्मः करिष्यामः इदानीम् अहम् एवमेव यद् अत्यन्तं परिचितमस्ति तत्तु साक्षात् दृष्ट्वा एव ज्ञायते ततः आरुरोह आरूढवान् कः आरुरोह मारुतिः कीदृशः मारुतिः परिभ्रमन् पर्यटनं कुर्वन् सञ्चरन् कुत्र परिभ्रमन् तस्याम् अशोकवनिकायाम् कीदृश्यां तस्यां सा अशोकवनिका परिवृता अस्ति परिवृतायां तां परितः एते सन्ति इति अर्थः कैः परिवृतायाम् अनोकः निवहैः अनोकः इत्युक्ते वृक्षः किमर्थं एतन्नाम इत्युक्ते अनसः अकं हन्ति इति अनोकः रथस्य मार्गं हन्ति वृक्षाः अधिकाः भवन्ति चेत् रथः तत्र वेगेन सञ्चरितुं न शक्नोति किल अतः अनोकः कीदृशैः अनोकः निवहैः अनेकैः पुनः कीदृशैः अत्र बहूनि नामानि दत्तानि सन्ति किल तेषां सर्वेषां नामानि अत्र उल्लिखितानि नाग पुन्नाग ताल हिंताल इति प्रभृति त्रियाळु पर्यन्तं काम सह आरुरोह कांचन शिंशपाम कीदृशीं शिंशपां कीदृशं शिंशपा वृक्षं कांचनमयीं शिंशपां स्वर्णमयीं पुनः कीदृशीं शिंशपां अभ्रंकश विकट विटप निबिडित गगन प्रपंचाम आरुरोह सः आरूढवान् अस्ति अनेकैः उपरि उल्लिखित एते वृक्षाः सन्ति किल एतेषां एतादृश बहुविध वृक्षैः वृक्षसमूहैः परिवृतायां परिपूर्ण अशोकवनिकायां सः सञ्चरन् कश्चन कञ्चन वृक्षम् आरूढवान्। सः वृक्षः कीदृशः अस्ति इत्युक्ते नभः स्पृशति, अभ्रं कषति। अभ्रः इत्युक्ते मेघः अपि भवति नभः अपि भवति, अत्र गगनस्पर्शी वृक्षः। अभ्रं कष विटक् विकट विटप, विकट इत्युक्ते विशाल, विटपः इत्युक्ते वृक्षः। मे गगनस्पर्शी विशाल वृक्ष तैः निबिडित गगनप्रपञ्चम् इत्युक्ते तेन गगनमण्डलमेव व्याप्तम्। एतेन शिंशपा वृक्षस्य विस्तरेण गगनमण्डलं व्याप्तम्। तादृशीं घनीभूतां गगनमण्डलमेव व्याप्नुवतीं शिंशपां कामपि स्वर्णमयीं शिंशपा वृक्षम् आरुरोह आरूढवान् आञ्जनेयः इत्येव। अत्र वृक्षाणामेव विषयः अस्ति, तद् टिप्पण्यां दृष्ट्वा एव वयं किञ्चित् अधीतुं प्रयत्नं कुर्मः। अत्र अधिकविस्तारम् अहं न करोमि, साक्षात् एव अग्रे गच्छामः। तत्र तत्पत्र सञ्छन्न, तत्र तत्पत्र सञ्छन्न गात्रः पुत्रो न भस्वतः। न्यग्रोधद्दल संलीन जनार्दन दशां दधौ,
न्यग्रोधदल संलीन जनार्दन दशां दधौ।
सः तस्मिन् वृक्षे शिंशपा वृक्षे पत्रैः आच्छन्नः आसीत्। पत्राणां मध्ये आत्मानं सः गोपितवान्। कारणं किम्? परितः राक्षसाः सन्ति, अनन्तरं रावणः अपि आगच्छन् अस्ति तत्र, अतः आत्मानं सः गोपयन् तत्र स्थितः। कथं दृष्टः तस्मिन् समये आञ्जनेयः इत्युक्ते वटपत्रशायी जनार्दनः इव दृष्टः इति अत्र वर्णनम्। अवच्छेदः तत्र तत्पत्रसञ्छन्नगात्रः पुत्रः नभस्वतः न्यग्रोधदलसंलीनजनार्दनदशां दधौ। दधौ इत्युक्ते प्राप्तवान्। कः पुत्रः? कस्य पुत्रः? नभस्वतः इत्युक्ते वायोः, नभसि स्वनति इति नभस्वनः, नभस्वान्, नभस्वतः पुत्रः, वायुपुत्रः, वायोः पुत्रः। कीदृशः नभस्वतः पुत्रः? तत्पत्रसञ्छन्नगात्रः, शिंशपायाः पत्रैः आच्छन्न शरीरः, शरीरम् आच्छन्नं शरीरं यस्य, सः तत्पत्रसञ्छन्नगात्रः आञ्जनेयः। कुत्र दधौ? तत्र तस्मिन् वृक्षे। कां दधौ? न्यग्रोधदलसंलीनजनार्दनदशां दधौ। न्यग्रोध इत्युक्ते वटपत्र, न्यग्रोध इत्युक्ते वटः, वटवृक्षः। न्यग्रोधदल वटपत्र संलीन वटपत्रे शयानः जनार्दनः यथा दृश्येत तथा अयं तत्र दृष्टः इति भावः। अन्वयः तत्र तत्पत्रसञ्छन्नगात्रः नभस्वतः पुत्रः न्यग्रोधदलसंलीनजनार्दनदशां दधौ। तत्र तस्मिन् शिंशपावृक्षे तत्पत्रसञ्छन्नगात्रः तद्वृक्षस्य पर्णैः आच्छादितशरीरः सन्, वृक्षस्य पर्णैः आच्छादितशरीरः सन् नभस्वतः पुत्रः वायुसुतः न्यग्रोधदलसंलीनजनार्दनदशां दधौ। वटपत्रे शयानस्य विष्णोः अवस्थां प्राप्तवान् इति भावः। इतोपि एकं श्लोकं वयम् अद्य पश्यामः, एतं श्लोकं पठित्वा अग्रे गच्छामः। तत्र तत्पत्रसञ्छन्नगात्रः पुत्रो नभस्वतः न्यग्रोधदलसंलीनजनार्दनदशां दधौ। अग्रिमः श्लोकः तद् अग्रिमं श्लोकं श्लोकः अत्र मया त्यक्तः, तत्कारणमहं वदामि। तत्र कृता उपमा किञ्चित् अरुच्यै आसीत् इति मम भाति स्म। अनन्तरं तस्य त्यागेन कथायां या अनुस्यूतिः अस्ति सा अनुस्यूतिः अपि भग्ना न भवेत्, अतः तद् सः श्लोकः मया त्यक्तः अस्ति। अग्रिमं साक्षात् एक लघुवाक्यमस्ति, ततः परं कश्चन श्लोकः अस्ति, पुनः तत् पठामः। पुनरयं एनाम् आलोक्यैवं चिन्तां तथा न पुनः अपि पूर्वमेव चिन्ता मग्नः जातः आञ्जनेयः, बहुवारं दृष्टवन्तः वयं लङ्कां प्राप्य प्रथमवारं तस्य का चिन्ता जाता, इयं लङ्कानगरी अभेद्या अस्ति, दुर्गमा अस्ति, कथं वा अस्माकं सैन्यम् अत्र प्रविशेत् इति प्रथमचिन्ता। अनन्तरं यदि अत्र आगच्छति चेदपि कथं नगरं प्रति नगरं गच्छेत्, कथं प्रविशेत्, कथं युद्धं कुर्यात् अस्माकं सैन्यम् इति तस्य चिन्ता। अनन्तरं सीताम् अदृष्ट्वा पुनः सः चिन्तां प्राप्तवान्, बहु विरचित बहुविधचिन्ताप्रकारः इति पदं दृष्टम्। इदानीं पुनरप्येनम् एनाम् आलोक्य, इदानीं सीतां दृष्ट्वा पुनः चिन्ताम् अकरोत्, अपश्यन् चिन्ताम् अकरोत्, सीतां देवीम् अपश्यन् चिन्ताम् अकरोत्, इदानीं तां पश्यन् अपि सः चिन्तां तथा न चिन्ताम् अकरोत्। पुनरपि एनां सीतादेवीम् आलोक्य दृष्ट्वा एवम्, इदानीं वक्ष्यमाणप्रकारेण अग्रे उच्यते केन कारणेन तस्य मनसि चिन्ता जाता इति, तथा न चिन्ताम् अकरोत्। चिन्तयति आञ्जनेयः, एषा कोमलाङ्गी अत्यन्तं शुचि पतिव्रता, अत्यन्तं साध्वी एषा सीतादेवी, अत्यन्तं कोमलाङ्गी, किन्तु तां परितः विद्यमानाः राक्षस्यः कथं सन्ति इत्युक्ते सर्वे विकराळाः, विशालगात्राः सर्वे अपि, सर्वाः अपि एतां तर्जयन्ती स्थिताः। अनन्तरम् एतस्याः दर्शनमात्रेण आञ्जनेयः तास् सीतादेव्याः माहात्म्यम् अवगच्छति। सः चिन्तयति कथं रघुनाथः एतां त्यक्त्वा इदानीमपि श्वसन् तिष्ठति इति तस्य मनसि चिन्ता जाता, तस्य मनसि विचारः आगतः। कदाचित् लोके ज्योत्स्नां विना अपि चन्द्रः स्यात् तिष्ठेत्, कदाचित् स्वपत्नीं छायां विना अपि सूर्यः विलसेत्, किन्तु रघुपतिः कथम् एतां त्यक्त्वा धृतप्राणः तिष्ठति इति तस्य मनसि चिन्ता विचारः जातः। ज्योत्स्नां विनापि निवसेन् निशिशीत भानुः, छायां विनापि विलसेत् दिवसेश्वरोऽपि, एनां विना रघुपतिः परिगृह्य धैर्यम्,
ఏనాం వినా రఘుపతి పరిగృహ్య ధైర్యం
ప్రాణ ఏవ వసతి ఇతి విచిత్రమేతత్.
తప్రాణ ఏవ వసతి ఇతి విచిత్రమేతత్.
పదచ్ఛేదః జ్యోత్స్నాం వినా అపి వివసేత్ నిషి శీతభానుః, ఛాయాం వినా అపి విలసేత్ దివసేశ్వరః అపి, ఏనాం వినా రఘుపతిః పరిగృహ్య ధైర్యం సప్రాణః ఏవ వసతి ఇతి విచిత్రం ఏతత్. నివసేత్ వాసం కుర్యాత్, తిష్ఠేత్. కః నివసేత్? శీతభానుః నామ చంద్రః. కాం వినా అపి నివసేత్? జ్యోత్స్నాం వినా అపి. కదా నివసేత్? నిషి, రాత్రౌ. పునః క్రియాపదం అస్తి విలసేత్. కః విలసేత్? దివసేశ్వరః. కాం వినా అపి విలసేత్? ఛాయాం వినా అపి. అగ్రిమం క్రియాపదం అధ్యాహృతం అస్తి. కిం అస్తి? ఏతత్ విచిత్రం అస్తి. కిం కరోతి ఇతి ఏతత్ విచిత్రం? వసతి ఇతి విచిత్రం. కః వసతి? రఘుపతిః. కీదృశః? రఘుపతిః. సప్రాణః వసతి ఇతి రఘుపతిః. కాం వినా? ఏనాం వినా, సీతాం వినా. కిం కృత్వా? పరిగృహ్య. కిం పరిగృహ్య? ధైర్యం పరిగృహ్య. అన్వయః భవతి శీతభానుః నిషి జ్యోత్స్నాం వినాపి నివసేత్, దివసేశ్వరః ఛాయాం వినాపి విలసేత్, ఏనాం వినా రఘుపతిః ధైర్యం పరిగృహ్య తప్రాణః అపి వసతి ఇతి ఏతత్ విచిత్రమేవ. శీతభానుః చంద్రః, వస్తుతః భానోః చంద్రస్య చ సాదృశ్యం కుత్ర? ఉభౌ అపి ప్రకాశం దత్తః, ప్రకాశదానే ఉభౌ అపి సమౌ. కింతు విషమౌ భిన్నౌ తస్మిన్ విషయే. భానుః ఉగ్రః ఔష్ణ్యం దదాతి, కింతు చంద్రః తు శీతలత్వం ప్రదదాతి. అతః శీతభానుః ఇతి ఉక్తం అత్ర చంద్రః. నిషి, రాత్రౌ. జ్యోత్స్నాం వినాపి, చంద్రికాం వినాపి. నివసేత్, తిష్ఠేత్ కదాచిత్. దివసేశ్వరః సూర్యః. ఛాయాం వినాపి, ఛాయానామికాం స్వభార్యాం వినాపి. ఛాయా ఏవ సూర్యస్య పత్ని. తాం వినాపి సహ తిష్ఠేత్, విలసేత్, ప్రకాశేత్, ప్రకాశేత. కింతు ఏనాం వినా, సీతాదేవీం వినా రఘుపతిః శ్రీరామః ధైర్యం పరిగృహ్య హృదయ దార్ఢ్యం అవలంబ్య కథం సప్రాణః అపి సజీవః అపి వసతి తిష్ఠతి ఇతి ఏతత్ విచిత్రమేవ. ఏతత్తు ఆశ్చర్యకరమేవ. పూర్వం కదాచిత్ ఆంజనేయః యదా రామః సీతా వియోగే విలపన్ ఆసీత్, ప్రలపన్ ఆసీత్, తద్దృష్ట్వా చింతితవాన్ స్యాత్, కిమర్థం ఏవం విలపతి శ్రీరామః పత్ని వియోగే ఇతి. కింతు ఇదానీం సీతాదేవీం దృష్ట్వా సహ అవగచ్చతి యత్ సీతాదేవ్యాః మాహాత్మ్యం కిం, కథం ఉభయోః మధ్యే ప్రేమ అస్తి ఇతి. అతః సహ అవగత్య ఆశ్చర్యకరం యత్ శ్రీరామః ఏతస్యాః వియోగః వియుక్తః అపి కథం తిష్ఠతి, ప్రాణాన్ ధృత్వా కథం తిష్ఠతి ఇతి మనసి విచారం కరోతి. ఏతావతా అద్య విరమామః. రామాయణే అపి క్రమశః యః యః భాగః అత్ర అస్మాభిః పఠ్యతే తం భాగం వాల్మీకిరామాయణే అపి అస్మాభిః పఠనీయం ఇతి యథా ఆదౌ ఉక్తం, తద్ వయం సర్వే క్రమేణ కుర్మః ఇతి ప్రార్థయ సంప్రార్థ్య విరమామి. అంతిమంత్రం వదామః. సర్వే భవంతు సుఖినః, సర్వే సంతు నిరామయాః, సర్వే భద్రాణి పశ్యంతు, शांति शांति शांति।
शांति।